ॐ भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु आपमापमपः सर्वाः अस्मादस्मादितो मुदः अग्निर्वायुश्च सूर्यश्च सहसञ्जस्करर्ध्रिया वायुवश्वारश्मिपतयः मरीच्यात्मानो अद्रुहः देवेर्भुवनसूवरेः पुत्रवत्त्वाय मे सुत महानाम्नेर्महामानाः महसो महसस्वः देवे पर्जन्यसूवरेः पुत्रवत्त्वाय मे सुत अपाश्नुष्णिमपारक्षः अपाश्नुष्णिमपारघम् अपाघ्रामपजावर्तिम् अपदेवे ऋतोहित वज्रम् देवेरजेतागश्च भुवनम् देवसूवरेः आदित्यानतिथिम् देवे योनिनोर्ध्वमुदेशत शिवा नश्यन्तमा भवन्तु दिव्या आप ओषधयः सुमृडीका सरस्वती मा ते व्योम संयमैतिह्यम् अनुमानश्चतुष्टयम् एतैरादित्यमण्डलम् सर्वैरेव विधास्यते सूर्यो मरीचिमा दत्ते सर्वस्माद्भुवनादधे तस्या पाकविशेषेण स्मृतम् कालविशेषणम् न देवप्रभवात् काचित् अक्षय्यात्स्यन्धते यथा तान्नद्योऽपि समाह्यन्ते सोरुस्रतेन निवर्तते एवन्नानासमुत्थानाः कालासंवत्सरग्रश्रिताः अणुशश्च महशश्च सर्वे समवयन्त्रितम् सतैः सर्वैः समाभिष्टः ऊरुः सन्न निवर्तते अधिसंवत्सरम् विद्यात् तदेव लक्षणे अणुभिश्च महद्भिश्च समारूढ प्रदृश्यते संवत्सर प्रत्यक्षेण नाधिसत्त्व प्रदृश्यते पटरो विक्लिदः पिङ्गः एतद्वरुणलक्षणम् यत्रैतदुपदृश्यते सहस्रम् तत्र नीयते एकगुम् हि शिरो नानामुखे कृत्स्नम् तदृतुलक्षणम् उभयतः सप्तेन्द्रियाणि जल्पितम् त्वेव दिह्यते शुक्लकृष्णे संवत्सरस्य दक्षिणवामयोः पार्श्वयोः तस्यैषा भवते शुक्रम् ते अन्यद्यजतम् ते अन्यत् विषुरूपे अहनीद्यौरिवासे विश्वा हि माया अवसि स्वधावः भद्राते पूषन्निहरातिरस्त्विते नात्र भुवनम् न पूषा न पशवः नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमम् विद्यात् एतद्वै संवत्सरस्य प्रियतमगम् रूपम् योऽस्य महानर्थ उत्पत्स्यमानो भवति इदम् पुण्यम् कुरुष्वेति तमाहरणम् दानागम् सप्ततमाहुरे कजम् षडुद्यमार्षयो देवजा इति तेषामिष्टानि विहितानि धामशः स्तात्रे रेजन्ते विकृतानि रूपशः को नु मर्या अमितिथः सखा सखायमब्रवीत् जहा को अस्मदीशते यस्तित्याज सखि विदगुम् सखायम् न तस्य वाच्यपि भागो अस्ति यदेकम् शृणोत्यलगगम् शृणोति न हि प्रवेदसुकृतस्य पन्थामिति ऋतुनुऋतुनानुद्यमानः विददादाभिदावः षष्ठिश्च त्रिगुंशका वल्गाः शुक्लकृष्णौ च षाष्ठिकौ सारागवस्त्रैर्जरदक्षः वसन्तो वसुभिः सह संवत्सरस्य सवितुः प्रैषकृत्प्रथमः स्मृतः अमूनातयतेत्यन्यान् अमूगुश्च परिरक्षतः एतावाच प्रयुज्यन्ते यत्रैतदुपदृश्यते एतदेव विजानीयात् प्रमाणम् कालपर्यये विशेषणम् तु वक्ष्यामः ऋतूनाम् तन्निबोधदा शुक्लवासारुद्रगणः ग्रीष्मेणावर्तते सः निजहन् पृथिवीगुम् सर्वाम् ज्योतिषा आप्रदिक्येन सह विश्वरूपाणि वासागुंसे आदित्यानाम् निबोधत संवत्सरेणम् कर्मफलम् वर्षाभिर्दतागंसः अदुःखो दुःखचक्षुरिव तद्मापीत इव दृश्यते शीतेनाव्यधयन्निव रुरुदक्ष इव दृश्यते क्लादयतेज्ज्वलतश्चैव शाम्यतश्चास्य चक्षुषे या वै प्रजाभिरग्रश्यन्ते संवत्सरात्ताभिरग्रश्यन्ते या प्रतितिष्ठन्ते संवत्सरेता प्रतितिष्ठन्ते वर्षाभ्योत्थितस्यैव विप्रसन्ने कनीनिके आन्तेजाद्गणम् नास्ते ऋभूणाम् तन्निबोधत कनकाभानि वासागुंसे अहतानि निबोधत अन्नमस्मीतमृज्मीत अहम्बो जीवनप्रदः एतावाच प्रयुज्यन्ते शरद्यत्रोपदृश्यते अभिधोन्वन्तोऽभिघ्रन्तगिव वातवन्तो मरुद्गणाः अमुतो जेतुमिषु मुखमिव सन्नद्धाः सह ददृशेः अबद्धस्तैर्वस्तिवर्णैरिव विशिखासः कपद्दिनः अक्रुद्धस्य योत्स्यमानस्य क्रुद्धस्येव लोहिनी हेमतश्चक्षुषे विद्यात् अक्ष्णयो क्षिपणोरिव दुर्भिक्षम् देवलोकेषु मनूनामुदकम् गृहे एतावाच प्रवदन्ते वैद्युतो यान्ति शैशिरेः ता अग्निपवपाना अन्वै क्षत इह जीविकामपरिपश्यन् तस्यैषा भवते इहेहवस्व तपसः मरुतः सूर्यत्वजः शर्म सप्रधानिव सागुंसे अष्टिवज्रिशतघ्नि च विश्वे देवा विप्रहरन्ते अग्निजिक्वा असश्चत नैव देवो न मर्त्यः न राजा वरुणो विभुः नाग्निर्नेन्द्रो न पवमानः मातृकच्चन विद्यते दिव्यस्यैकाधनुरार्त्रिः पृथिव्यामपराश्रिता तस्येन्द्रो वम्रिरूपेण धनुज्यामचिनत्स्वयम् तदिन्द्रधनुरित्यज्यम् अब्रवर्णेषु चक्षते एतदेव शय्योर्बार्हस्पत्यस्य एतद्रुद्रस्य धनुः रुद्रस्य त्वेव धनुरात्रिः चिर उत्पिबेश सप्रवर्ग्यो भवत् तस्माद्यः सप्रवर्गेण यज्ञेन यजते रुद्रस्य सजिर प्रतिदधादे नैनगुम् रुद्र आरुको भवति य एवम् वाक्षोतिरश्चात् शिशिर प्रदृश्यते नैव रूपम् न वा सागुंसे न चक्षु प्रतिदृश्यते अन्योन्यन्तु न हि ग्रादः सदस्तद्देवलक्षणम् लोहितोऽष्णिशारशेष्णिः सूर्यस्योदयनम् प्रति त्वम् करोषिण्यञ्जलिकाम् त्वम् करोषि निजानुकाम् निजानुकामेऽन्यञ्जलिका अमीवाचमुपासतामिति तस्मै सर्वर्तवो नमन्ते मर्यादाकरत्वात् प्रभुरोधाम् ब्राह्मण आप्नोति य एवम् वेद स खलु संवत्सर एतैः सेनानीभिः सह इन्द्राय सर्वान् कामानभिवहति सद्रप्सः तस्यैषा भवति अवद्रप्सो अगुंशुमतीमतिष्ठत् इयान कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रश्च्याधमन्दम् उपस्रुहितम् नृपणामधद्रामिते एत एवेन्द्रः सलावृक्या सह असुरान् परिपृच्छते पृथिव्यगुम् शुमते तामन्नवस्थितः संवत्सरो दिवम् च नैवम् विदुषाचार्यान्ते वासिनो अन्योन्यस्मै द्रुह्याताम् यो द्रुह्यते ब्रश्यते स्वर्गात् लोकात् इत्रुतुमण्डलानि सूर्यमण्डलान्याख्यायिकाः अथ ऊर्ध्वगुंसनिर्वचनाः